संस्कृत रीडिंग थ्री वानर मकर कथा पेज 395। अथ पुरा नर्मदा नदी तीरे कस्मिंश्चिद् वृक्षे सुमतिर्नाम वानरो वसति स्म। स सदैव तस्य वृक्षस्य मधुराणि फलान्यखादत्। एकदा तस्य हस्तादेकं फलं नद्या जले पतत्। तदा च मधुरः ध्वनिः टप् टप् इत्यजायत। तेन ध्वनिना प्रसन्नः स वानरो बहूनि फलानि जले प्राक्षिपदमाद्यच्च। तस्यान्नद्यां कश्चिन् मकरो मकरी चावसताम्। स मकरः कदाचित् नद्यास्तीरमागच्छत्। वानरेण क्षिप्तानि फलानि चाभक्षयत्। तानि मधुराणि फलानि मकरायारोचन्त। एवं स मकरः प्रतिदिनं तत्र नदीतीरमगच्छत् फलानि चाखादत्। मकरो मकर्याः कृते तानि फलानि गृहमनयत्। कालेन वानरमकरयोर्मैत्र्यभवत्। वानरः प्रतिदिनं मित्राय मकराय मधुराणि फलान्ययच्छत्। एकदा मकर्यचिन्तयत्, यो वानरः प्रतिदिनं मधुराणि फलानि खादति तस्य हृदयमपि मधुरं भवेदिति। सा मकरी मकरायावदत्, हे प्रिय, अहं तव मित्रस्य वानरस्य हृदयं खादितुमिच्छामीति। तदा मकरो वदत्, स वानरो मे मित्रम्, कथं मित्रस्य हृदयं भक्षयेरिति। ततः मकरी अभाषत, यद्यहं वानरस्य हृदयं न लभेय नाहं जीवेयम्। वानरस्य हृदयं मे यच्छ, अन्यथा मां मृतां पश्येति। ततो मकरो वदत्, एवं भवतु, वानरस्य हृदयं तव कृत आनयेयमिति। मकरो नदीतीरमगच्छद् वानरं चावदत्, हे मित्र, अद्य त्वं भोजनाय मम गृहमागच्छेति। वानरो भाषत, हे मकर, तव गृहं जले, मम गृहं भूमौ, कथमहं तव गृहमागच्छेयमिति। मकरो वदत्, मम पृष्ठे त्वमुपविश्य, ततोऽहं त्वां मम गृहं नयेयमिति। वानरो मकरस्य पृष्ठ उपाविशत्। मकरश्च जलस्य मध्ये गच्छद् वानरं चावदत्, अधुनेश्वरं स्मर, मम भार्या तव हृदयं खादितुमिच्छतीति। वानरो भीतोऽपि मार्गमचिन्तयत्। स मकरमवदत्, हे मित्र, अहं मम हृदयं सदा वृक्षस्य कोटरे रक्षामि। यदि मां पुनर्वृक्षं प्रति नयेस्तर्ह्यहं तुभ्यं मम हृदयं यच्छेयमिति। मूर्खो मकरो वानरं पुनस्तीरं प्रत्यनयत्। वानरस्तीरमगच्छद् वृक्षमरोहन् मकराय चावदत्, हे मूर्ख, भक्षय मकर्या हृदयम् इति।